अस्तु, तर्हि इदानीम् अस्माकं प्रसङ्गः अस्ति जनकनाशजन्यगुन्नाशस्य एकदेशदृष्टान्ताः च पाकविषये वादद्वयमिति. अत्र पाकविषये गतसप्ताहे वयं पीडुपाकवादः अपि च पिटरपाकवादः इति वादद्वयविषये किञ्चित् परिचयः जातः गतकक्षायां. तर्हि तस्मिन् विषये किञ्चित् चिन्तनं कृत्वा अग्रे सरेम. तर्हि अत्र सुनील् महोदय, भवान् वदति वा तत्र पीलुपाकवादः इत्युक्ते किम् इति?
अत्र पीलुपाकवादः इति यदा घटस्य विषये वदामः, यदा घटे तेजसंयोगः भवति, पीलुपाकवादः वदति प्रथमं परमाणुस्तरे रूपपरिवर्तनं भवति, अनन्तरं द्वयणुके, तदनन्तरं त्रयणुके, तदनन्तरं क्रमेण समग्रे घटे परिवर्तनं भवति इति पीलुपाकवादः.
तर्हि अत्र पीलु इत्युक्ते किं?
परमाणुः
इत्युक्ते, पीलुः इत्युक्ते परमाणुः. सम्यक्.
अनन्तरं पिटरपाकवादः वद
एकक्षणं महोदय, एकक्षणं, क्षम्यताम्. अस्तु, तर्हि रामप्रिया भगिनी भवती वदति वा तत्र पिटरपाकवादः तेषां मतं किम् इति?
आम्, पिटरपाकवादः ते वदन्ति यत् समग्र यदा तेजसंयोगः भवति तत्तु समग्रः समग्रघटे भवति, न तु परमाणौ इति, परमाणौ आरभ्य इति न, साक्षात् घटे एव तेजसंयोगः भवति इति. ते तु नैयायिकाः अस्ति पिटरपाकवादिनः इति.
अस्तु, सम्यक्. तर्हि तत्र पीलुपाकवाद वादमते तत्र तेषाम् आशयः अस्ति यत् तत्र प्रथमं परमाणौ यः इत्युक्ते तेजसंयोगेन गुणस्य नाशः भवति चेत् प्रथमं परमाणौ यः गुणः अस्ति तस्य नाशः भवति, तस्य नाशः भवति इति कृत्वा द्वयणुके, द्वयणुके नाशः भवति इति कृत्वा त्रयणुके इति क्रमेण गच्छति. परन्तु पिटरपाकवादीनां मतानुसारं तत्र समग्रघटे तत्र एकस्मिन् समये एव तथा तत्र तादृश गुणनाशः भवति इति. तर्हि एतावत्पर्यन्तं प्रश्नः नास्ति चेत् अग्रे सरेम. तर्हि मध्ये अन्य कोऽपि आगतवान् वा
भगिनि?
नमस्कारः भगिनि. अस्तु, तर्हि तत्र रामप्रिया भगिनी भवती एव आरम्भं करोति वा तत्र प्रकृतौ इति अस्मात्?
प्रकृतौ जनकनाश अजन्यगुणनाशः तादृशजनकनाशात् भिन्नः गुणनाशः स्वाधिकरणे विद्यमानेन गुणान्तरेण हि भवति. यथा घटादिषु द्रव्येषु रूपं, रसः, गन्धः, स्पर्शः इत्येषां नाशः तेजसंयोगात्. एते चत्वाराः एकदेश अन्वयदृष्टान्ताः. इदं मतं पिटरपाकवादिनाम् इति उक्तम्. पीलुपाकवादिनां मतम् अत्र किम् इत्यस्य बोधनार्थं किञ्चित् इतोपि गभीररीत्या स्थितिः परिशीलनीया भवति. अत्र प्रथमं प्रकृतौ जनकनाश अजन्यगुणनाशः तादृशजनकनाशात् भिन्नः गुणनाशः, जनकनाशात् अन्यगुणनाशः इति गुणनाशः स्वाधिकरणे इत्युक्ते स्वस्मिन् अधिकरणे विद्यमानेन गुणान्तरेण हि भवति. गुणान्तरेण इत्युक्ते अन्यगुणेन हि, अन्येन गुणेन एव भवति इति. यथा तत्र एव तस्य उदाहरणम् दीयते, घटादिषु द्रव्येषु, घटादिद्रव्येषु रूपं रसं रूपरसगन्धस्पर्श इति गुणः तस्य नाशः तेजस्संयोगात् भवति. तत्र तु घटस्य नाशः न भवति, परन्तु गुणस्य एव नाशः भवति. गुणस्य नाशः अन्य गुणेन इत्युक्ते तेजसंयोगेन भवति. एते चत्वाराः, एते चत्वारः इत्युक्ते रूपरसगन्धस्पर्शः एकदेश अन्वयदृष्टान्तः. यदा वयम् अनुमानप्रसङ्गे दृष्टवन्तः एकदेशः इति, इत्युक्ते आश्रयनाश अजन्यगुणनाशः इति विषये, आश्रयनाशेन अजन्यगुणनाशः इति तत्र एकदेशः अस्ति इति वयं दृष्टवन्तः. यथा महानसम् इति तत्रापि रूपरसगन्धस्पर्शः.
आश्रयनाशाजन्यगुणनाशे महानसम् इति एकदेशः कथं भवति?
न, पक्षे एकदेशः इति दृष्टवन्तः किल.
सत्यं, पक्षस्य इत्युक्ते तत्र यदा धूमवह्निस्थलम् इति दृष्टवन्तः तत्र तस्मिन् पक्षे एकदेशः आसीत् तत्र महानसम् इति.
महानसं तत् तावत् तादृशमेव अत्र रूपरसगन्धस्पर्शः एकदेशः. घटादिषु इति द्रव्येषु इति पक्षे इति स्वीकर्तुं शक्नुमः किल?
घटः इति न, घट् तत्र पश्यतु, तत्र चत्वारः गुणाः खलु. तर्हि तत्र घटं, घटः इति द्रव्यं, तर्हि कथं वा घटादिषु इत्यस्य एकदेशः भवति गुणः?
ओहो,
इत्युक्ते तत्र गुणेषु गुणनाशः इति यदस्ति तस्य गुणनाशस्य एकदेशः अस्ति एते चत्वारः, चत्वारः गुणाः.
इदं मतं पिटरपाकवादिनाम् इति युक्तम्. एतत्तु पिटरपाकवादिनां मतमस्ति. ते एव वदन्ति समग्रघटे एव नाशः भवति, यदा तेजसंयोगात् नाशः भवति, गुणनाशः भवति चेत् समग्रघटे भवति इति तेषां मतम् अस्ति. तेषां मतम् एव एतदस्ति. पीलुपाकवादिनां मतम् अत्र किम् इत्यस्य बोधनार्थं किञ्चित् इतोपि गभीररीत्या स्थितिः परिशीलनीया भवति. पीलुपाकवादिनां विषये, मतस्य विषये इतोपि किञ्चित् अस्ति इति परिशीलनीयं भवति.
इतोपि किञ्चित् अधिकं परिशीलनीयं भवति इति. अस्तु, तर्हि अग्रे विद्याशङ्कर् महोदय भवान् पठति वा?
भगिनी तत्र क्षम्यतां, स्पर्शः इत्येषां नाशः तेजस्य कथं वा तेजसंयोगेन स्पर्शस्य नाशः?
तत्र उष्ण शीतस्पर्शः उष्णस्पर्शः इति भवति खलु, तत्र शीतस्पर्शस्य नाशः भूत्वा उष्णस्पर्शः इति भवति खलु. यथा रूपस्य कृष्णरूपस्य नाशः अभवत् श्यामरूपमिति आगच्छति तत्र.
किन्तु घटः पार्थिवपदार्थः, तस्मिन् उष्णस्पर्शः वा शीतस्पर्शः वा नास्ति किल, केवलं स्पर्शः एव अस्ति. शीतोष्णस्पर्शभिन्नः
न तद् वयं तत्र उष्णस्पर्शः इति तेजे अस्ति, तेजसि अस्ति, अपि च शीतस्पर्शः इति किं तत्र जले
जले
अनुष्णाशीतस्पर्शः इति तत्र पार्थिव
पदार्थे
इति वयं दृष्टवन्तः. तर्हि अनुष्णा अशीत स्पर्शः पार्थिवपदार्थे अस्ति, परन्तु इदानीं तत्र पार्थिवपदार्थे तत्र वयं यदा घटः घटस्य स्पर्शनं यदा कुर्मः तदा तत्र उष्णस्पर्शः अस्ति चेत् तत् तेजसंयोगेन भवति खलु. तस्मिन् विद्यमानः तत्र अनुष्णाशीतस्पर्शः तस्य नाशः भूत्वा इदानीम् उष्णस्पर्शः इति आगतः.
ओ इति स्वीकार्यं तत्र किञ्चित् अस्तु यदा किञ्चित् कालानन्तरं वयं तेजस्य तेजसंयोगस्य निवारणं कुर्मश्चेत् पुनः अनुष्णाशीतस्पर्शः आगच्छति किन्तु तादृशं रूपं प्रति न आगच्छति किल इति भेदः अस्ति
रूपमपि यदा कदापि आगच्छति खलु इत्युक्ते तत्र यदा
यत् यत् रूपं पूर्वम् आसीत् यद् यद् रूपं तेजसंयोगेन नष्टः भवति तद् रूपं पुनः न आगच्छति कालान्तरेण किन्तु
वस्तुतः मम अवगमनं यदस्ति तत्र कालान्तरेण पुनः यत् पूर्वम् आसीत् तत् पुनः कदापि न आगच्छति तत्र साम्यं दृश्यते यत् साम्यम् अस्ति तद् अस्माकं दर्शने एव परन्तु इदानीं यः नूतनगुणः अस्ति तत् सर्वदा नूतनगुणः एव इत्युक्ते पूर्वम् इत्युक्ते तत्र घटे इदानीम् अनुष्णाशीतस्पर्शः अस्ति चेत् अनन्तरं तेजसंयोगेन उष्णस्पर्शः जातः अनन्तरं कालान्तरेण तत्र पुनः अनुष्णाशीतस्पर्शः आगच्छति चेत् इदानीं यः अनुष्णाशीतस्पर्शः अस्ति अपि च श्वः इति चिन्तयामः तत्र अनुष्णाशीतस्पर्शः पुनः आगच्छति इति तयोः मध्ये भेदः अस्ति इति मम अवगमनम् इत्युक्ते अद्य यः अनुष्णाशीतस्पर्शः अस्ति सः एव अनुष्णाशीतस्पर्शः श्वः नास्ति
किन्तु नाशः अभवत् चेत् कथं वा पुनरागमनं तस्य इति प्रश्नः प्रायः तस्य कारणं वक्तव्यं
पुनः न आगच्छति तत्र भिन्नस्पर्शः एव आगच्छति
भिन्नम् इति कथं साधयितुं शक्यते पूर्वं तेजसंयोगात् पूर्वं
खलु यद् नाशः जातः
इत्येव प्रश्नः इत्येव निरूपणीयं किल नाशः अभवत् इति निरूपणीयं
नाशः अभवत् इति कृत्वा एव तत्र नूतनस्पर्शः आगतः खलु महोदय इत्युक्ते इदानीं घटं स्पर्शयामि अहं तस्मिन् तत्र अनुष्णाशीतस्पर्शः अस्ति इदानीं तत्र चूलिका इति किमपि यत्र कुत्रापि तत्र स्थापयामि तर्हि तेजसंयोगः जातः तर्हि इदानीं पुनः यदा तस्य स्पर्शनं भवति तत्र प्रत्यक्षम् अस्ति खलु तत्र अनुष्णाशीतस्पर्शः नष्टः नूतन उष्णस्पर्शः आगतः इति
नूतन उष्णस्पर्शः आगतः इति प्रत्यक्षेन वयं ज्ञातुं शक्यते किन्तु नष्टः इति कथम्
अहं भवतः प्रश्नः इत्युक्ते उष्णस्पर्शः पूर्वं यः स्पर्शः अस्तु इत्युक्ते कृष्णरूपम् इति स्वीकुर्मः तत्र प्रायः किञ्चित् सौलभ्यं कृष्णरूपः अस्ति अस्तु तर्हि इदानीं तेजसंयोगः भवति इति कृत्वा श्यामरूपः अस्ति चेत् पूर्वं कृष्णरूपः नास्ति खलु किमर्थं नास्ति यतोहि तस्य नष्टः जातः तदर्थमेव नूतनरूपम् इति आगतम् अत्र
तत्र नष्टः इति स्वीकर्तुम् एकम् उपायम् अस्ति किमर्थम् इत्युक्ते कालान्तरेण पुनः कृष्णवर्णः कदापि न आगच्छति इति कृत्वा यद्रूपम् आसीत् तद् नष्टम्
न तथा मम अवगमनं नास्ति प्रायः महोदयं प्रष्टुं शक्नुमः मम अवगमनं तथा नास्ति इत्युक्ते यतोहि पुनः यद् पुनः आगच्छति चेत् अपि तद् नितरां नूतनः एव यत् पूर्वम् आसीत् तत् पुनः न आगच्छति इति एव
तादृशं स्वीकुर्मः
अस्तु इति एव मम अवगमनं प्रायः महोदयं प्रष्टुं शक्नुमः
अस्तु अस्तु
विद्याशङ्कर् महोदय अग्रे
एतावता परिचयत्वेन उक्तम् अधुना अग्रे वस्तुस्थितिः द्रष्टव्या वैशेषिकाणां मतानुसारं परमाणौ पाकः जायते अतः ते पीलुपाकवादिनः इति उक्तम् आरम्भे अपक्वं घटं स्वीकुर्मः तस्मिन् मृदुत्वं वर्तते मृदुत्वं किमर्थम् इति चेत् घटस्य अवयवसंयोगेषु शैथिल्यम् अस्ति अधुना अपक्वघटः अग्निसंयुक्तस्थले स्थाप्यते। तस्मात् घटस्य परमाणुषु पाकः जायते, परमाणवः नित्याः, अतः तेजसंयोगेनापि तेषां नाशो न भवति। किन्तु अनेन पाकेन द्वयोः परमाणोः ये शिथिलसंयोगः, स संयोगः नश्यति। द्वयोः परमाणोः यः संयोगः आसीत् सः नष्टः, स च संयोगः द्व्यणुकस्य असमवायिकारणम् आसीत्। अधुना असमवायिकारणनाशात् तच्च द्वयणुकं स्वयं नष्टम्। परमाणुः नित्यः, किन्तु द्वयणुकं नित्यः न, नित्यं न। यदा पाकेन परमाणुद्वयस्य संयोगः नष्टः, तदा तस्मात् द्वयणुकं नष्टम्। तर्हि परमाणुद्वयसंयोगनाशे सति द्वयणुकनाशः। अधुना द्व्यणुकं त्रयणुकस्य अवयवः, अतः तच्च त्रयणुकं द्वयणुकं त्रयणुकस्य समवायिकारणम्। यदा द्वयणुकं नष्टं, तदा समवायिकारणनाशात् त्रयणुकमपि नष्टम्। ततः अग्रे च संयोगनाशेन अवयवनाशः इति न, अपि तु साक्षात् द्रव्यभूत अवयवस्य नाशात् तस्मिन् समवेतस्य नाशः। अतः त्रयणुकनाशात् चतुरणुकनाशः, एवं च क्रमेण कपालिकानाशः, कपालिकानाशात् कपालनाशः, अन्ततो गत्वा घटनाशोऽपि जायते। तत्र विस्तारेण प्रक्रिया यत् अस्ति क्रमेण तत् उक्तं। पूर्वं परिचयत्वेन पीलुपाकवादिनां मतं किम् आसीत् इति दृष्टम्। अधुना अग्रे वस्तुस्थितिः का इति चिन्तयामः। वैशेषिकाणां मतानुसारं परमाणौ पाकः जायते। ते वदन्ति य पाकजसंयोगेन यत्र पाकसंयोगः भवति तत्र परमाणुस्तरे पाकः जायते। तदर्थं पीलुः इत्युक्ते परमाणुः, तदर्थं तेषां मतं पीलुपाकवादिनः पीलुपकवादः इति उक्तम्। आरम्भे अस्मिन् उदाहरणे अपक्वं घटं स्वीकुर्मः। तस्मिन् घटे आरम्भे मृदुत्वमस्ति। यदा कुलालः घटं हस्तेन रूपयति तत्र आरम्भे मृदुत्वम् अस्ति। मृदुत्वं किमर्थं चेत् घटस्य अवयोगसंयोगेषु शैथिल्यम् अस्ति। यतोहि मृदुः किञ्चित् काठिन्यं तत्र नास्ति, शैथिल्यम् अस्ति। तत्कारणात् घटे कपाले घटे च मृदुत्वम् अस्ति।
तत्र एकः महोदय क्षम्यतां, तत्र शैथिल्यम् अस्ति इत्युक्ते किम् इति प्रायः भवान् अवगच्छति, परन्तु किञ्चित् वदति वा? इत्युक्ते तत्र
दौर्बल्यम्, अबलं, दौर्बल्यम् अस्ति। तयोः संयोगः काठिन्यं नास्ति, यथा शिलाखण्ड तत्र काठिन्यम् अस्ति, किन्तु किं वदामि, दहिः तत्र काठिन्यं नास्ति, शैथिल्यम् अस्ति, एवं वा? शैथिल्यम् अस्ति। अधुना अपक्वघटः तेजसंयोगे अग्निसंयुक्तस्थले स्थाप्यते। तस्मात् आरम्भे घटस्य ये परमाणवाः सन्ति तेषु पाकः जायते। परमाणवः नित्याः, तदर्थं तेजसंयोगेनापि तेषां नाशः न भवति। किन्तु पाकसंयोगेन परमाणुद्वयोः संयोगेन यः द्वयणुकः अस्ति स च संयोगः नश्यति। एषः संयोगः शिथिलसंयोगः, तत्र काठिन्यं बलं नास्ति, संयोगः नश्यति। किमर्थं नश्यति? द्वयोः परमाणवो ये संयोगः आसीत् स नष्टः, संयोगः तत्र द्व्यणुकस्य असमवायिकारणम् आसीत्। यत्र दृष्टवन्तः असमवायिकारणम् अत्र प्रथमविध असमवायिकारणं समवायेन कारणे कार्ये स्थित्वा एवं वा विस्मरामि असमवायकारणं कारणे
कार्येण कारणेन सह एकस्मिन् अर्थे स्थित्वा समवायेन कार्यं जनयति इति असमवायिकारणं खलु?
अत्र कार्यं वा कारणं द्विविधम् अस्ति तत्र किं कस्मिन् नदी न स्मरामि संयोगनाशः कपालद्वय संयोगः द्वितीय प्रथमविधसमवायकारणं समवायेन कारणे तिष्ट्वा समवायेन कार्यं जनयति इति समवायकारणं
कार्याधिकरणे समवायेन स्थित्वा
समवायेन कार्यं जनयति अत्र परमाणुद्वयोः संयोगः समवायेन परमाणुषु तिष्ट्वा द्वयणुकं प्रति समवायेन द्वयणुकं जनयति अतः इति संयोगः असमवायकारणम् अतः असमवायकारणनाशात् द्वयणुकं स्वयं नष्टं भवति परमाणुः नित्यः किन्तु द्वयणुकं नित्यं न यदा पाकेन संयोगः यद् आसीत् पूर्वतिष्ठसंयोगः नष्टः तदा परमाणु द्वयणुकस्य नष्टं भवति तर्हि परमाणुद्वयसंयोगनाशे द्वयणुकस्य नाशः अपि भवति अधुना इति द्वयणुकस्य नाशः असमवायिकारणनाशः अग्रे द्वयणुकं त्रयणुकस्य अवयवः अस्ति त्रयः द्वयणुकः त्रयणुकमिति जनयति किन्तु अत्र द्वयणुकं त्रयणुकं प्रति समवायिकारणं यदा सर्वेषु घटेषु द्वयणुकाः नष्टाः तत्र द्वयणुकस्य नष्टेन समवायिकारणनाशात् त्रयणुकाः अपि नष्टाः ततः अग्रे संयोगनाशेन अवयवनाशः इति नास्ति किञ्चित् द्रव्यभूत अवयवस्य नाशात् तस्मिन् समवेतस्य नाशः इत्युक्ते त्रयणुकात् अग्रे संयोगनाशेन अवयवनाशः इति न किन्तु साक्षात् समवायेन चतुरणुकः सर्वं तिष्ठति समवेतस्य यस्मिन् समवेतः तस्य नाशात् अग्रे द्रव्यभूतस्य अवयवस्य नाशः भवति अग्रे गत्वा त्रयणुकनाशः चतुरणुकनाशः एवं च क्रमेण कपालिकानाशः अनन्तरं कपालिकानाशात् कपालनाशः अग्रे घटस्य नाशः इत्युक्ते अत्र घटस्य अवयवाः कपालौ तस्य अवयवाः कपालिकाः अवयवनाशात् अन्ततो गत्वा घटः अपि नष्टः भवति क्रमेण
सम्यक् इत्युक्ते प्रथमं तत्र द्वयणुकस्य स्तरे एव असमवायिकारणनाशेन द्वयणुकं नश्यति तदनन्तरं समवायिकारणनाशेन तदनन्तरं क्रमेण तत्र घटपर्यन्तं गत्वा तत्र सर्वं नश्यति इति
त्रयणुकात् आरभ्य संयोगनाशेन अवयवनाशः इति न किन्तु यस्मिन् समवेतः तस्य नाशः इति उक्तं न वा साक्षात् द्रव्यभूत अवयवस्य नाशात्
इत्युक्ते तत्र द्वयणुकस्य नाशः भवति संयोगस्य नाशः जातः इति कृत्वा इत्युक्ते परमाणुस्तरे परमाणुद्वयसंयोगः नष्टः इति कृत्वा द्वयणुकस्य नाशः अभवत् परन्तु यदा द्वयणुकस्य नाशः जातः तर्हि तत्र अवयवस्य एव नाशः जातः इति कृत्वा त्रयणुकस्य नाशः अभवत् तद्वत् त्रयणुकस्य नाशः जातः इति कृत्वा चतुरणुकस्य नाशः इति क्रमेण घटपर्यन्तं स्पष्टं वा तर्हि अग्रे शुकवन महोदय भवान् पठति वा
हा पठामि भगिनि तत्पूर्वम् एकः प्रश्नः शैथिल्यम् इति कीदृशं कीदृशपदार्थम् अस्ति
शैथिल्यम् इति प्रायः धर्मः इति चिन्तयामि इत्युक्ते
धर्मः इति पदार्थः नास्ति किल
सामान्यानां धर्मः समानानां धर्मः सामान्यम् इति खलु तद्वत् इति चिन्तयामि यथा तत्र
शिथिलः शैथिल्यं
ओ
शिथिलस्य भावः शैथिल्यं
हा प्रश्नः कीदृशपदार्थः इति महोदय सामान्यम् इति भगिनी वदति
इति मम अवगमनं महोदय तत्र यथा तत्र सौन्दर्यम् अपि तत् तद्वत् एव खलु
सुन्दरस्य भावः
भावः तु धर्म तत्र समानानां धर्मः भवति यत्र यत्र सुन्दरता अस्ति तत्र सर्वत्र सौन्दर्यमस्ति इति कृत्वा समानानां धर्मः सामान्यम् इति भवति इति चिन्तयामि.
अस्तु तर्हि पुरातनघटः नष्टः द्वयणुकेऽपि रूपम् आसीत् एवमेव सर्वेषु अवयवेषु रूपम् आसीत् किन्तु यदा तेजसंयोगः कृतः घटे तदा परमाणुद्वयसंयोगनाशक्रमेण कपालनाशः घटनाशश्च अभवत् अनेन परमाणून् अतिरिच्य सर्वे अवयवाः नष्टाः तेषु आश्रितरूपम् अपि नष्टम् परमाणवः किन्तु तस्मिन् क्रमे न नष्टाः ते अधुनापि सन्ति तेषु च रूपम् अस्ति तदानीं परमाणवः स्वतन्त्राः ते तु न कस्यापि अवयवाः तेषु स्वतन्त्रेषु किमिति ये परमाणुषु येषु परमाणुषु इति वा तेषु स्वतन्त्रेषु परमाणुषु सम्प्रति तेजसंयोगेन पूर्वतन श्यामरूपं नश्यति नूतनतया च नवीनरक्तरूपम् उत्पद्यते तदा परमाणुसंयोगात् द्वयणुकोत्पत्तिः द्वयणुकसंयोगात् त्रयणुकोत्पत्तिः इत्येवं क्रमेण घटोत्पत्तिः अपि च यद्रक्तरूपं निष्पन्नं परमाणुषु तदेव रक्तरूपं नूतना अवयवेषु घटे च वर्तते अवयवाः रक्तरूपवन्तः कपालः रक्तरूपवान् एवं रीत्या च घटोऽपि रक्तरूपवान् इत्थञ्च श्यामरूपवद्घटः नष्टः स्वतन्त्रेषु परमाणुषु श्यामरूपञ्च नष्टं तत्र च रक्तरूपम् उत्पन्नम् अनन्तरं द्वयणुकादिक्रमेण रक्तघटस्य उत्पत्तिः भवति. इदानीमपि पीलुपाकवादिनः मतानुसारं प्रक्रिया कथम् इति पूर्वस्मिन् परिच्छेदे कथं पूर्वतनघटस्य नष्टः क्रमेण द्वयणुकाद् आरभ्य घटपर्यन्तं जायते इति दृष्टम्. इदानीं नूतनघटं कदा उत्पन्नं भवति इति अस्मिन् परिच्छेदे दत्तमस्ति. द्वयणुकात् आरभ्य घटपर्यन्तं नष्टम् इति नष्टः जातः. इदानीं किं भवति परमाणुषु यद् श्यामरूपम् आसीत् तत् श्यामरूपं तेजसंयोगेन रक्तरूपम् अभवत् पुनः परमाणुषु संयोगः जायते अनेन द्वयणुकं जायते परमाणुषु रक्तरूपं जातम् इति कृत्वा कार्य द्वयणुके अपि रक्तरूपमेव भवति पुनः द्वयणुकं द्वयणुकानां संयोगेन त्रयणुकः जायते तदपि रक्तरूपमेव भवति एवमेव कपालः घटपर्यन्तं संयोगः भवति अवयवानां संयोगः भूत्वा घटस्य अपि रक्तरूपं भवति किन्तु इदानीं यद् घटं रक्तरूपघटमस्ति तत्तु नूतनघटम् इति पीलुपाकवादिनां मतम्. एवमेव नूतन घटमपि तत्र निर्माणं भवति अपि च तस्मिन् रक्तरूपमपि रक्तरूपमपि नूतनरक्तरूपमपि जायते इति सारांशः अस्य परिच्छेदस्य.
सम्यक् महोदय. तर्हि सर्वे अवगतवन्तः वा अत्र किम् अस्ति इत्युक्ते अत्र न केवलं नूतनरूपं, वस्तुतः घटः एव नूतनः इदानीम् हा. अस्तु, एवं कुर्मः. सुनील महोदय, भवान् किञ्चित्
अत्र एकः प्रश्नः भगिनि, पीठ पिठरपाकमते अपि नूतनघटम् उत्पद्यते किल, नो चेत् नूतनवर्णमेव उत्पद्यते वा?
पितरपाकवादे तु नूतनवर्णः एव इति मम अहं चिन्तयामि, प्रायः अग्रे आगच्छति. परन्तु
समग्रे
तत्र घटे तत्र एकस्मिन् समये एव नूतन वर्णः इति आगच्छति खलु इति कृत्वा तादृशचिन्तनं नास्ति इति चिन्तयामि.
इत्युक्ते पितरपाकवादिनः किं वदन्ति, घटस्य नाशः भवति वा नो चेत् घटस्य रूपस्य नाशः एव भवति वा इति?
हा, घटस्य रूपस्य नाशः एव जायते इति मम अवगमनम्.
अस्तु,
पीलुपाकवादिनां मते एव, यतोहि पीलुपाकवादिनां मतानुसारं तत्र परमाणोः संयोगः एव नष्टः खलु, तर्हि तत्र इदानीं द्वयणुकं नष्टं, तर्हि क्रमेण घटपर्यन्तं सर्वं नष्टः जातः. अनन्तरं यदा नूतनरूपम् आगच्छति तदा तत्र नूतनसंयोगः नूतनघटः. परन्तु पितरपाकवादिनां मते केवलं तत्र समग्रे घटे इदानीं गुणस्य परिवर्तनमेव जातम्.
हा, पूर्वस्मिन् वर्गे मया न आसन्, किन्तु सुनील् महोदय यदा प्रतिपादितवान् पितरपाकवादः इति, तस्मिन् सन्दर्भे एवं श्रुतं मया, प्रायः मया एव अवगतवान् घटस्य नाशः जातः इति अनेन उक्तम् इति भाति. सुनील् महोदय तादृशम् उक्तवान् वा नो चेत् घटस्य रूपस्य नाशः एव भवति इति उक्तवान् वा?
घटस्य रूपस्य नाशः इति अत्र उक्तवान्. पीलुपाकवादे परमाणुस्तरे आरभ्य क्रमेण द्वयणुगे त्रयणुगे एवं गत्वा समग्रगडे रूपस्य नाशः इति वक्तुं प्रयत्नं कृतवान्. घटस्य
पीलुपाकवादिनां मतानुसारेण केवलं द्वयणुकस्य रूपस्य नाशः इति नास्ति, द्वयणुकस्य नाशः एव जातः जायते, पुनः तस्य उत्पत्तिः अपि भवति इति अत्र परिच्छेदद्वये उक्तम्.
सत्यम्. अत्र एवं कुर्मः महोदय, तत्र भवान् एव एतत् पठतु, तत्र पिटर् किञ्चित् पूर्वं गच्छतु, यद्वयं गतसप्ताहे पठितवन्तः. तत्र पितरपाकवादः इति द्वितीयं मतम् इति एकः इति परिच्छेदः.
अस्तु, अहं पठामि. पितरपाकवादः इति द्वितीयं मतम्, अत्र च पितरशब्दः स्वीकृतः पितरशब्दस्य घटः इत्यर्थः. वस्तुतः घटे एवं कार्यं भवति इति न, पितरपाकः इति पारिभाषिकनामकरणं कृतं तावदेव. पितरशब्देन पार्थिवद्रव्यं यत्किमपि भवति, पितरपाकवादिनां मतानुसारणं साक्षात् घटे एकं रूपम् अस्ति, तेजसंयोगः च साक्षात् घटे भवति न तु परमाणौ. तर्हि घटे तेजसंयोगः जायते, तेन कारणेन घटे विद्यमानं रूपं नश्यति, रूपान्तरं च उत्सर्जते. अयं वादः नैयायिकम् इदानीं स्पष्टं जातं. तत्र पितरपाकवादिनः किं वदन्ति इत्युक्ते केवलं घटस्य रूपस्य यद् रूपं पूर्वम् आसीत् तस्य नाशः एव भवति, अपि च नूतन रूपं तस्मिन् जायते, न तु घटस्य नाशः इति पिटलपाकवादिनां मतं. किन्तु पीलुपाकवादिनां मतानुसारेण केवलं घटस्य रूपस्य इति न, किन्तु द्वयणुकपर्यन्तं रूपस्य, केवलं रूपस्य इति न किन्तु द्वयणुकपर्यन्तं सर्वस्य नाशः भवति, पुनः तस्य उत्पादनं तेषाम् उत्पादनमपि भवति इति तेषां मतम्.
अस्तु, सम्यक्. तर्हि सुनील् महोदय, भवान् इदानीं यत् विद्याशङ्कर् महोदय अपि च शुकोन् महोदय प्रतिपादितवन्तः तत्र अन्तौ पीलुपाकमतानुगुणं कथं तत्र रूपनाशः भवति घटे इति, तत् किञ्चित् पुनः वदति वा? आवश्यकं चेत् तत्र परिच्छेदद्वयमपि पठित्वा अपि वदतु, नो चेत् एवमेव वक्तुं शक्नोति यत्
अहम् एवमेव वक्तुं प्रयत्नं करोमि. अत्र प्रथमपरिच्छेदे अत्र घटस्य परमाणुस्तरे कदा कथं पाकः जायते इति अस्ति. अत्र आरम्भे
एतत् केषां मतम् इति वदतु तत्र.
एतत् पीलुपाकवादः अस्ति, अत्र परमाणुस्तरे अस्ति. अतः घटस्य आरम्भे अपक्वः घटः अस्ति इत्युक्ते अत्र तत्र घटस्य यथार्थकाठिन्यं नास्ति, केवलं मृदुत्वम् अस्ति इति. अतः तत्र यदा अग्नि संयोगः जायते तत्र द्वयोः परमाणोः संयोगेन अत्र द्वयणुगं भवति, अनन्तरं त्रयणुगं भवति. तादृशं समवायेन तत्र क्रमेण गच्छति तत्र
क्रमेण गच्छति. एकक्षणं, तत्र क्रमेण कः गच्छति सम्यक्तया न अवगच्छामि.
आम्, तत्र यदा घटस्य परमाणुषु पाकः जायते अत्र तेजसंयोगेन तेषां गुणस्य नाशः अपि भवति.
कस्य गुणस्य नाशः भवति तेषां गुणः इत्युक्ते कः गुणः इदानीम्?
आम्, इदानीं रूपम् इति स्वीकुर्मः चेत् अत्र रूपस्य नाशः भवति.
तथा नास्ति खलु वस्तुतः अत्र. तत्पूर्वं किमपि भवति तत्र घट रूपस्य नाशस्य पूर्वं. अस्तु, विद्याशङ्कर् महोदय, भवान् किञ्चित् तत्र सहायं करोति वा?
आमाम्, आरम्भे पाकसंयोगेन परमाणुषु पाकसंयोगः भवति, तस्मात् परमाणुद्वयोः यः शिथिलसंयोगः अस्ति सः संयोगः नश्यति. अस्य संयोगस्य नाशात् द्वयणुकस्य नाशः भवति. द्वयणुकम् इत्युक्ते परमाणुद्वयोः संयोगः एव द्वयणुकम्. परमाणुद्वयोः संयोगनाशेन द्वयणुकं नश्यति.
अनन्तरं बहु सम्यक्, एकक्षणं. तर्हि सुनील् महोदय, भवान् अवगच्छति वा अत्र संयोगः इति गुणः एव नश्यति? परमाणौ यः संयोगः इति गुणः अस्ति सः गुणः नश्यति इति कृत्वा द्वयणुकस्य एव नाशः भवति. इदानीं परमाणौ विद्यमानः अन्यगुणः इति तस्य प्रसङ्गः नास्ति वस्तुतः.
इदानीं स्मरामि, अहं पूर्वं रूपस्य एव चिन्तनं कृतवान्.
विद्याशङ्कर् महोदय,
भवान् अवगच्छति वा? सुनील् महोदय,
आमाम् इदानीम् अवयवस्य अवयव अवयोः मध्ये किम् अस्ति इति एव अस्ति अत्र संयोगः. अतः द्वयणुगस्य नाशः भवति त्रयणुगं प्रति इति.
अग्रे त्रयणुकस्य अपि नाशः भवति, यतोहि त्रयणुकम् इति त्रयद्वयणुकं संयोगेन इति एव त्रयणुकं जातं. द्वयणुकस्य नष्टेन त्रयणुकमपि नष्टम्. अग्रे चतुर्णुकः अपि नष्टः, अग्रे कपालिका नाशः, अग्रे कपालः नाशः, अग्रे अन्ततो गत्वा घटः नाशः क्रमेण.
इदानीम् अवगच्छति वा महोदय तत्र कथम्? अस्तु, तर्हि पुनः एकवारं तत्र कथं द्वयणुकं कथं नश्यति, अनन्तरं घटः पर्यन्तं नाशः कथं जायते इति एकवारं वदति वा?
अत्र अत्र अपक्वघटे यदा तेजसंयोगः भवति, प्रथमं परमाणुस्तरे यदा द्वयणुकस्य नाशः भवति.
एकक्षणं, द्वयणुकस्य नाशः कथं भवति, केन जायते?
अत्र पाकसंयोगेन, यदा पाकसंयोगः भवति.
न, तेजसंयोगः भवति इति कृत्वा कथं तत्र परमाणुः तु नित्यः खलु, तर्हि परमाणोः नाशः न भवति, तर्हि किमर्थं
परमाणोः नाशः न भवति, परन्तु द्वयोः परमाणोः तत्र शैथिल्यं भवति. अतः अत्र द्वयणुकस्य नाशः त्रयणुकात् भवति.
द्वयणुकस्य नाशः त्रयणुकात् कथं भवति? न तथा नास्ति महोदय, तत्र परमाणु द्वयणुकम् इत्युक्ते किं, परमाणुद्वयसंयोगः खलु, परमाणुद्वयस्य संयोगः जायते चेत् तत्र तयोः मेलनेन द्वयणुकम् इति जायते, सत्यं? तर्हि इदानीं किं भवति, यदा तेजसंयोगः भवति तदा परमाणु द्वयमस्ति, तयोः मध्ये संयोगः अस्ति, इत्युक्ते तेजसंयोगः इति पृथक् स्थापयतु इदानीम्. तत्र परमाणुद्वयमध्ये संयोगः अस्ति खलु, परमाणु ए इति अस्ति, बि इति अस्ति इति चिन्तयतु. ए बि मध्ये कश्चन संयोगः अस्ति, येन तत्र द्वियणुकम् इति अभवत्, ए बि इति द्वियणुकम् अभवत्. तर्हि इदानीं तत्र ए बि द्वयोः मध्ये यः संयोगः अस्ति तस्य संयोगस्य नाशः जातः यदा तेजसंयोगः भवति. तर्हि यदा तयोः मध्ये संयोगस्य नाशः भवति, तर्हि द्वयणुकम् इति एव इदानीं नास्ति खलु, यतोहि ए परमाणुः बि परमाणुः द्वयोः मेलनेन एव द्वयणुकं जातं. तर्हि द्वयोः मेलनम् इदानीं मेलनस्य भङ्गं भवति चेत् तर्हि कथं वा द्वयणुकं स्यात्? अवगच्छति वा?
द्वयोः मध्ये कः संयोगः आसीत् तस्य संयोगस्य नाशः अभवत्. अतः अत्र द्वयणुकस्य इत्युक्ते अत्र द्वयणुकस्य नाशः अभवत् इति वक्तुं शक्नुमः. अत्र अहं जानामि इदानीं परमाणुस्तरे अस्ति इति, परन्तु
तदेव विद्याशङ्करमहोदय अपि उक्तवान् खलु, यदा तत्र परमाणोः मध्ये यः संयोगः अस्ति सः तस्य नाशः जातः, तर्हि द्वयणुकस्य एव नाशः भवति.
अतः एषः नाशः त्रयणुकस्य संयोगनाशं प्रति कारणं भवति.
न तथा नास्ति खलु. इदानीं तत्र केवलं परमाणुस्तरे तत्र परमाणोः मध्ये यः संयोगः अस्ति तस्य नाशेन इदानीं द्वयनुकस्य नाशः जातः, सत्यम्? इदानीं द्वयनुकमेव नष्टं. द्वयनुकं नास्ति चेत् कथं वा त्रयणुकं भवति? तत्र संयोगः इत्यस्य प्रसङ्गः एव नास्ति. इत्युक्ते चिन्तयतु, कपालः अस्ति खलु, कपालद्वयसंयोगेन घटः जातः. कपालः एव नास्ति चेत् घटः भवितुं शक्नोति वा?
न शक्नोति.
तद्वत् एव खलु, द्वयणुक अत्र द्वयणुकः एव नष्टः चेत् कथं वा त्रयणुकं भवितुम् अर्हति?
त्रयणुकसंयोगस्य नाशः इति अहम् उक्तवान्. इत्युक्ते द्वयणुकं त्रयणुकं प्रति कारणं किल, अतः द्वयणुक संयोगस्य नाशः भवति चेत् त्रयणुकः अपि नास्ति इदानीं.
सत्यं, परन्तु द्वयणुकस्य द्वयणुकम् अस्ति चेत् एव द्वयणुकस्य संयोगः भवितुम् अर्हति खलु. इदानीं द्वयणुकमेव नष्टः, तदेव अत्र अत्र पश्यतु, यत् परिच्छेदः विद्याशङ्कर् महोदय पठितवान् तत्र अस्ति, तत्र प्रायः अन्तिमवाक्यात् प्रायः वाक्यत्रयपूर्वम् अधुना द्वयणुकं त्रयणुकस्य, तस्मात् पठतु किम्.
अवयवः अधुना द्वयणुकं त्रयणुकस्य अवयवः, अतः तच्च द्वयणुकं त्रयणुकस्य समवायिकारणं, तदा द्वयणुकं नष्टं. यदा द्वयणुकं नष्टं तदा समवायिकारणनाशात् त्रयणुकमपि नष्टम्.
एतत् वदतु तत्र किम् अस्ति इति, अवगच्छति वा एतत् वाक्यम्?
अत्र इदानीं द्वयणुकं त्रयणुकस्य अवयवः आसीत्, अतः द्वयणुकस्य द्वयणुकं त्रयणुकं प्रति समवायिकारणं भवति. अतः तत्र द्वयणुकनाशः भवति इति कारणेन यदा द्वयणुकं नष्टं तदा समवायिकारणनाशात् त्रयणुकमपि नष्टमिति.
न तु तत्र संयोगस्य कारणेन, इत्युक्ते द्वयणुक द्वयोः मध्ये यः संयोगः अस्ति तस्य नाशः जातः इति कृत्वा त्रयणुकस्य नाशः न अभवत्, परन्तु द्वयणुकमेव नष्टम् इति कृत्वा त्रयणुकस्य नाशः जातः. तत्र अग्रे पठतु महोदय, तदेव अस्ति.
ततः अग्रे च संयोगनाशेन अवयवनाशः इति न, अपि तु साक्षात् द्रव्यभूत अवयवस्य नाशात् तस्मिन् सम्मतस्य नाशः. अत्र इदानीं तदेव संयोगनाशेन नास्ति, अत्र साक्षात् द्रव्यभूत अवयवस्य नाशः भवति, समवेदस्य नाशः अस्ति अत्र.
इत्युक्ते किं तत्र किञ्चित् स्वस्य शब्दैः किञ्चित् प्रतिपादयतु महोदय.
यदा अत्र
इत्युक्ते द्वयणुकं त्रयणुकम् इति उदाहरणं स्वीकृत्य,
द्वयणुकं त्रयणुकस्य अवयवः अस्ति, अतः यदा द्वयणुकस्य नाशः भवति द्वयणुकं अत्र समवायिकारणमस्ति,
समवायिकारणमस्ति द्वयणुकं
त्रयणुकस्य, अतः अत्र द्वयणुकस्य नष्टः भवति चेत् अत्र समवायिकारणस्य त्रयणुकस्य नष्टः अपि भवति.
न तु तत्र न तु कस्य नाशेन भव
न तु संयोगनाशेन इति. अग्रे अतः त्रयणुकनाशात् चतुरणुकनाशः एवं च क्रमेण कपालिकनाशः कपालिकनाशात् कपालनाशः अन्ततो गत्वा घटनाशोऽपि जायते. एवं क्रमेण त्रयणुकनाशात् चतुरणुकनाशः अनन्तरं इतोपि अन्ततो गत्वा कपालिकनाशः अनन्तरं कपालनाशः तदनन्तरं घटनाशः इति भवति.
इति तत्सर्वं समवायिकारणनाशेन भवति, न तु संयोगस्य इत्युक्ते असमवायिकारणनाशेन इति मुख्यविषयः।
अहं चिन्तितवान् संयोगस्य इति एव अहं पूर्वं चिन्तितवान्।
उत्तमम्, इदानीं तत्र स्पष्टं खलु? उत्तमम्। तर्हि इति प्रथमं तत्र घटनाशः कथं भवति इति, इदानीं घटे विद्यमानं रूपं तस्य विषये किञ्चित् अस्ति, तत् पुनः एकवारं पठेम। तर्हि तत्र रामप्रिया भगिनी भवती तद्वदति वा तत्र?
क्षम्यतां भगिनी, तत्र तस्मिन् पूर्वम् एकं चिन्तनमस्ति। अत्र अवयव प्रथम अवयवः जनुकः, तस्य नाशः उक्तः, तस्य नाशमेव अभवत् चेत् क्रमेण घटनाशम् इति किं? प्रायः प्रतिपादनसमये क्रमेण अस्माकम् अवगमनार्थं तादृशं वदामः, किन्तु युगपत् घटस्य नाशः अपि भवति किल?
अत्र तु क्रमे अत्र तु तत्र कारणक्रमः एव दत्तः महोदय, इत्युक्ते तत् द्वयणुकस्य नाशः जातः इति कृत्वा त्रयणुकं, त्रयणुकं नाष्टम् इति कृत्वा चतुर्णुकम् इति तत्र क्रमेण इत्युक्ते तत्र कारणक्रमः एव, इत्युक्ते तत्र कालक्रमः इति नास्ति इति मन्ये।
तदेव मम आशयः आसीत्, कालक्रमः इति न स्वीकार्यं, किन्तु प्रतिपादनसमये अस्माकम् अवगमनार्थम् एतादृशं दत्तमस्ति, किन्तु तत्र कालक्रमः किमपि नास्ति। किन्तु सृष्टिसमये तत्र यत् परिच्छेदं मया पठितं, तत्र युगपत् इति न वक्तुं शक्यते, यद्यपि प्रायः एकक्षणम् इति वयं अवगन्तुं न शक्यते, किन्तु तत्र क्रमः अस्ति। सृष्टिसमये प्रथमं द्वेणुकम् उत्पद्यते, तदनन्तरं तयोः मध्ये संयोगः जायते, तदनन्तरं त्रयणुकः उत्पद्यते इति तत्र क्रमः अस्ति, किन्तु नाशसमये साक्षात् अवयवस्य अन्तिम अवयवस्य नाशः अभवत् इति कृत्वा, प्रथममेव अभवत् इति कृत्वा तत्र कालक्रमः नास्ति
इति एव मम अवगमनमपि सत्यं।
अस्तु,
धन्यवादः। तर्हि रामप्रिया भगिनी
पठित्वा वदामि वा? तर्हि पुरातनघटः नष्टः, इदानीं यदा वयं पूर्वस्मिन् परिचये दृष्टवन्तः पुरातनघटः तु नष्टः इदानीं, द्वयणुके अपि रूपम् आसीत्, एवमेव सर्वेषु अवयवेषु रूपम् आसीत्। पूर्वं यदा द्वयणुकविषये वयं दृष्टवन्तः तत्रापि एकं रूपम् आसीत् सर्वेषु अवयवेषु, इत्युक्ते त्रयणुके वा चतुरणुके वा कपालिका वा तत्र रूपम् आसीत् एव, इत्युक्ते नष्टात् पूर्वं रूपम् आसीत् एव। किन्तु यदा तेजसंयोगः कृतः घटे तदा परमाणुद्वय संयोगनाशक्रमेण कपालनाशः घटनाशश्च अभवत्। यदा वयं तेजसंयोगः कृतः घटे तेजसंयोगः अभवत् तत्र किम् अभवत् इत्युक्ते परमाणुद्वय संयोगनाशक्रमेण प्रथमं परमाणुद्वयस्य परमाणुद्वयसंयोगस्य नाशः अभवत्, क्रमेण कपालनाशः घटनाशः इति क्रमेण अभवत्। अनेन परमाणून् अतिरिच्य सर्वे अवयवाः नष्टाः, तेषु आश्रितरूपमपि नष्टम्। अनेन यद् अनेन इत्युक्ते तेजसंयोगेन, अनेन इत्युक्ते अत्र परमाणून् अतिरिच्य सर्वे अवयवाः नष्टाः, तेषु आश्रितरूपमपि नष्टम्।
अनेन इत्युक्ते एवं यदा
परमाणून् अतिरिच्य सर्वे अवयवाः नष्टाः, परमाणु एव नित्यः नित्यपदार्थः, तदेव परमाणुः एव नित्यः, तद् अतिरिच्य तद्विहाय अन्ये सर्वे अवयवाः नष्टाः, तेषु आश्रितरूपमपि नष्टं भवति। परमाणुः परमाणवः किन्तु तस्मिन् क्रमे न नष्टाः, ते अधुनापि सन्ति, तेषु च रूपम् अस्ति. यदा परमाणु नित्यः अस्ति तस्मिन् क्रमे तत्तु नष्टः न भवति, तत्र रूपम् इदानीमपि अधुनापि तत्र रूपम् अस्ति. तदानीं परमाणवः स्वतन्त्राः, ते तु न कस्यापि अवयवाः. परमाणुः स्वतन्त्राः सन्ति तदानीं, ते तु कस्यापि न अवयवः इत्युक्ते यदा स्वतन्त्राः सन्ति तत्र ते कस्यापि पदार्थस्य अवयवाः न सन्ति. तेषु स्वतन्त्रेषु परमाणुषु सम्प्रति तेजसंयोगेन पूर्वतनश्यामरूपं नश्यति, नूतनतया च नवीनरक्तरूपम् उत्पद्यते. एतद् परमाणु स्वतन्त्ररूपम् अस्ति. तत्र वयं यदा इदानीं तेजसंयोगः कुर्मः चेत् तत्र पूर्वं रूपं श्यामरूपम् अस्ति चेत् तद् नश्यं, तस्य नष्टः भवति, श्यामरूपस्य नष्टं भवति. इदानीं नूतनरूपं नवीनरक्तरूपम् इति नूतनतया किमपि रूपम् उत्पद्यते. तदा परमाणुसंयोगात् द्वयणुकोत्पत्तिः, द्वयणुकसंयोगात् त्रयणुक उत्पत्तिः इत्येव क्रमेण घट उत्पत्तिः. इदानीं घट उत्पत्तिक्रमः अत्र दत्तमस्ति. यदा प्रथमं परमाणुसंयोगात् द्वयणुक उत्पत्तिः भवति. यदा द्वयणुक उत्पत्ति द्वयणुकसंयोगः परमाणुद्वयस्य संयोगः भवति तत्र त्रयणुक उत्पत्तिः इति क्रमेण घट उत्पत्तिः भवति. अपि च यद् रक्तरूपं निष्पन्नं परमाणुषु तदेव रक्तरूपं नूतन अवयवेषु घटे च वर्तते. यदा परमाणु स्वतन्त्रतया अस्ति तत्र तेजसंयोगेन नूतनरूपम् आगच्छति रक्तरूपं, तदेव घटपर्यन्तं नूतन अवयवेषु घटे च वर्तते. अवयव
इदानीं परमाणु स्वतन्त्रतया अस्ति इति उक्तवती खलु, तर्हि तत्र परन्तु यदा तत्र संयोगः जातः तदा तस्य तादृशस्वतन्त्रता नास्ति.
नास्ति.
तर्हि प्रथमं यदा नष्टः जातः तस्मिन् समये तत्र परमाणुः स्वतन्त्राः, यतोहि कस्यापि अवयवः नास्ति. परन्तु यदा नूतनघटः अभवत्, नूतनक्रमेण घटोत्पत्तिः जातः, तदा तादृशस्वतन्त्रता नास्ति खलु?
नास्ति. अवयवाः रक्तरूपवन्तः, कपालः रक्तरूपवान्, एवं रीत्या घटे अपि रक्तरूपवान्. अत्र रक्तरूपः तु अवयवेषु कपाले, अनन्तरं घटे अपि तद्देव रक्तरूपम् आगच्छति. तावद्रीत्या एव रक्तरूपम् अस्ति. इत्थञ्च श्यामरूपवद्घटः नष्टः, स्वतन्त्रेषु परमाणुषु श्यामरूपञ्च नष्टं, तत्र च रक्तरूपम् उत्पन्नं. इत्थञ्च प्रथमं यत् श्यामरूपघटः अस्ति तद् नष्टः भवति, स्वतन्त्रेषु परमाणुषु श्यामरूपञ्च नष्टं, तत्र श्यामरूपं स्वतन्त्रेषु परमाणुषु अपि नष्टं भवति. इदानीं नूतनरूपं रक्तरूपम् उत्पन्नं भवति. अनन्तरं द्वयाणुकादिक्रमेण रक्तघटस्य उत्पत्तिः भवति. इदानीम् अनन्तरं यदा रक्तरूपम् उत्पन्नं भवति, अनन्तरं द्वयाणुकादिक्रमेण यदा द्वयाणुकम् इति संयोगक्रमेण रक्तघटस्य उत्पत्तिः भवति, रक्तरूपघटस्य उत्पत्तिः भवति.
सम्यक्. एतावत्पर्यन्तं प्रश्नः अस्ति वा? उत्तमं. तर्हि पुष्पा भगिनी, भवती अग्रे पठति वा?
अयं घटोत्पत्तिक्रमः पाकानन्तरम् एव भवति. तस्मिन् च क्रमे येन परमाणु द्वय संयोगेन द्वयणुकम् उत्पद्यते. सः संयोगः निबिडः न तु शिथिलः. निबिडः आरम्भे अपक्षगते अपक्वगते अपक्वगते अवयवसंयोगेषु शैथिल्यं तत्र मृदुत्वम् अनुभूयते गते. पाकेन च एते शिथिलसंयोगाः नश्यति. तदा पाकनन्तरं ये नूतनावयव संयोगाः जायन्ते तेषु नैबिध्यं वर्तते. अनेन च घटः नितरां नूतनः. तदा कठिनत्वम् अनुभूयते घटे. अत्र उत्पादि घटस्य उत्पत्तिक्रमं विवरणं कृतं. पाकानन्तरं कथमस्ति इति तस्मिन् क्रमेण परमाणुद्वयसंयोगेन द्वयणुकम् उत्पद्यते. सः संयोगः निबिडः नार्थं न अवगच्छामि भगिनि. निबिडः
निबिडः इत्युक्ते तत्र गाढः इत्युक्ते तत्र गहनः इति गाढः इत्युक्ते तत्र मृदुत्वं नास्ति, काठिन्यम् अस्ति, मृदुत्वं नास्ति, तत्र कठिनता अस्ति.
दृढः
शिथिलः इति वक्ते मृदु अस्ति इति.
शिथिलता इत्युक्ते तत्र दौर्बल्यम् अस्ति खलु, दृढत्वं नास्ति. इत्युक्ते यदा प्रथमं घटनिर्माणं भवति तत्र मृत्तिका स्वीकृत्य कुर्मः चेत् तत्र प्रथमं तस्मिन् काठिन्यं नास्ति खलु, मृदुत्वम् अस्ति इति कृत्वा तत्र तस्य यथा अस्माकं यथा आवश्यकं तथा तस्य रूपं कर्तुं शक्नुमः. तदनन्तरं यदा पाकसंयोगः जायते
तत्तु कठिनः.
हा सत्यम्.
आरम्भे अपक्वगते अवयवसंयोगेषु शैथिल्यं तत् इदानीम् उक्तं न आरम्भे अत्र शैथिल्यम् अस्ति इति. मृदुत्वम् अनुभूयते इदानीं मृदुत्वम् अस्ति इति. पाकेन च एते शिथिलसंयोगाः नश्यति. पाकजसंयोगेन शैथिल्यं नश्यति.
पाकसंयोगेन
पाकसंयोगेन शैथिल्यं नश्यति. तदा पाकानन्तरं नूतन अवयवसंयोगाः जायन्ते तेषु नैबिध्यं वर्तते. तत्तु काठिन्यम् आयाति. अनेन च घटः नितरां नूतनः. तत्तु नूतनघटस्य निर्माणम् आयाति.
न तथा नास्ति भगिनि. नूतनघटस्य निर्माणम् इति न, यत् तत्र यदा मृदुः आसीत् घटः तदा यः घटः आसीत् पाकानन्तरं यः घटः यः घटः अस्ति तद् नूतनघटः. इत्युक्ते तत्र यत् शिथिलसंयोगस्य नाशानन्तरं यदा निबिडसंयोगः जायते तदा नूतनघटः उत्पन्नः इति. अवगच्छति वा?
तत्तु तत्र मृदुत्वम् अस्ति इति अस्ति इत्यनेन घटं घट नूतनघट तत्तु अस्ति न नूतनघट घटः अस्ति परिमाणसमये
निर्माणसमये न भगिनि इदानीं यदा
पाकसंयोगेन
पाकस्य पूर्वम् इत्युक्ते तेजसंयोगस्य पूर्वं यः घटः अस्ति तस्मात् घटात् इदानीं पाकानन्तरं यः घटः अस्ति सः भिन्नः नूतनः इत्येव अत्र इत्येव वार्ता अत्र अवगच्छति वा
नूतनः तत्तु घटः काठिन्यः अभवत्
हा यः काठिन्यः घटः अस्ति सः घटः शैथिल्यघटः यत् पूर्वम् आसीत् तस्मात् नूतनः
तत्तु
तस्मात् केवलं परमाणवः समानाः एव वा
हा परमाणुः परमाणवः समानाः सत्यं
परमाणवः समानाः समानाः
परमाणुस्तरे एव तत्र भेदः नास्ति तदनन्तरं सर्वं तत्र नूतनं
अस्तु तदा कठिनत्वम् अनुभूयते घटे अस्तु अस्तु इदानीं तथैव
अस्तु अस्तु
इत्युक्ते भगिनि अत्र पूर्वस्मिन् परिचयः यत् आसीत् आरम्भे परमाणु विहाय सर्वं नष्टं घटः नष्टः अनन्तरं पूर्वतनरूपं नष्टः अनन्तरं नूतनरूपम् आगतम् अनन्तरं नूतनघटं निष्पन्नः इति भाति वा
न खलु किञ्चित् विपरीतक्रमः इत्युक्ते प्रथमं तत्र यदा घटः नष्टः भवति तदा एव रूपं तस्मिन् विद्यमानः गुणः यत्किमपि भवतु तस्यापि नष्टः जातः तस्मिन्नेव समये इत्युक्ते द्रव्यमेव नास्ति चेत् द्रव्ये विद्यमानः गुणः कथं भवितुम् अर्हति
कालक्रमेण किन्तु
तदनन्तरं द्रव्यस्य उत्पादनं भवति तदनन्तरमेव गुणस्य उत्पादनं यतोहि द्रव्यम् एकक्षणं यावत् निर्गुणं तिष्ठति इति वयं पूर्वं पठितवन्तः खलु
पूर्वस्मिन् परिच्छेदस्य अन्तिमवाक्यम् अनन्तरं द्वयोणादिक्रमेण रत्नघटस्य उत्पत्तिः भवति
हा तत्पूर्वं घटस्य उत्पत्तिः अभवत्
परमाणुस्तरे परमाणुस्तरे नूतनरूपम् आगतं
न घटः अपि उत्पादनम् अभवत् खलु तत्र वाक्यत्रयपूर्वं पश्यतु चतुष्टयं वस्तुतः तदा परमाणुसंयोगात् द्वयणुक उत्पत्तिः द्वयणुकसंयोगात् त्रयणुक उत्पत्तिः इति एवं क्रमेण घटोत्पत्तिः भवति अपि च रक्तरूपं निष्पन्नं परमाणुषु तदेव रक्तरूपं नूतन अवयवेषु घटे च वर्तते
तर्हि अन्तिमवाक्यं किम् अनन्तरं द्वयादि आरम्भे स्वतन्त्रेषु परमाणुषु श्यामरूपं नष्टं रक्तरूपम् उत्पन्नं अनन्तरं द्वयणुकादिक्रमेण रत्नघटस्य उत्पत्तिः किमन्तम् अनन्तरम् इति लिखितम् इत्युक्ते नूतनरूपस्य अनन्तरं
द्वयणुकादिक्रमेण तत्र तस्य पूर्वस्मिन् वाक्यं तत्र स्वतन्त्रेण तद्वाक्यम् एव केवलं तद्वाक्यमेव स्वीकर्तुं न शक्नुमः खलु तत्र पश्यतु अस्तु एतावत् पूर्वम् अवयवाः रक्तरूपवन्तः कपालः रक्तरूपवान् एवं रीत्या च घटोऽपि रक्तरूपवान् इति प्रथमं घटोत्पत्तिः तदनन्तरं घटे रक्तरूपम् अपि आगतम् इति तत्र पर्यवसितम् अस्तु तर्हि इत्थं च श्यामरूपवत् घटः नष्टः स्वतन्त्रेषु परमाणुषु श्यामरूपं च नष्टं तत्र च रक्तरूपम् उत्पन्नम् इत्युक्ते यथा वयं पूर्वम् उक्तवन्तः तया एव रीत्या तेन मार्गेण यत् प्रथमं श्यामरूपम् आसीत् घटे श्यामरूपघटः यः आसीत् सः घटः एव नष्टः घटः नष्टः इति कृत्वा परमाणुः इदानीं स्वतन्त्राः यथा रामप्रिया भगिनी उक्तवती, तत्र अवयवः तत् कस्यापि अवयवः नास्ति इति कृत्वा परमाणुः इदानीं स्वतन्त्रः. तादृशस्वतन्त्रपरमाणुः यः अस्ति तस्मिन् श्यामरूपं गच्छति, नूतनरक्तरूपम् आगच्छति. यदा तादृशं भवति तदा घटः घटस्य निर्माणम् अपि च रक्तरूपपरमाणोः संयोगेन द्वयणुकं तयोः संयोगेन त्रयणुकम् इति कृत्वा भवति घटनिर्माणम् इति कृत्वा घटे अपि रक्तरूपं भवति.
हा तदेव वदन्ति अनन्तरं भवति, भवती इदानीं मध्ये उक्तवती स्वतन्त्रेषु परमाणुषु नूतनरूपम् आगतम् अनन्तरं संयोगेन एवं.
सत्यं, परन्तु घटनिर्माणं प्रथमं भवति, घटे रक्तरूपम् अनन्तरम् आगच्छति इत्येव मम कथनस्य आशा अस्ति, आशयः एव. इत्युक्ते परमाणुषु, हा सत्यं, परमाणुषु तु प्रथमं रक्तरूपम् आगच्छति, परन्तु तद्वतेव तत्र द्रव्ये प्रथमं द्रव्य उत्पत्तिः तदनन्तरं
गुणोत्पत्तिः. अपि च भगिनि सुकुमारस्य प्रश्नविषये चिन्तयन्नासि आसम्, तत्र शिथिलता शिथिलभावः कठिनभावः इति स्पर्शेन गृह्यते वा?
यदा कदापि प्रायः दृष्ट्वा अपि वक्तुं शक्नुमः खलु,
तत्र अनुमानं भवति, किन्तु सत्यं साफ्ट् अस्ति वा इति स्पर्शेन, स्पर्शेनैव स्पर्शप्रत्यक्षेनैव ग्राह्यते गृह्यते. तथा यथा रूपविषये रक्तरूपं कृष्णरूपं पीतरूपम् इति अस्ति, तथा स्पर्शविषये उष्णस्पर्शं शीतस्पर्शं कठिनस्पर्शं शीतलस्पर्शमिति स्पर्शस्य वैविध्यं
यावत् अहं जानामि तत्र शीत उष्णस्पर्शः एव अस्ति. शीत उष्णस्पर्शः तेजसि, शीतस्पर्शः जले, अनुष्णाशीतस्पर्शः इति वायौ अपि च पार्थिव वस्तूनि इति. तत्र कठिनस्पर्शः शिथिलस्पर्शः इति अहं
गुणे न सन्ति, गुणेषु न लिखितं, किन्तु वयं जानीमः अनुभवे रफ् अस्ति साफ्ट् अस्ति इति सर्वम् अस्ति.
गुणः प्रायः नास्ति, सामान्यम् इति अहं चिन्तयामि, इत्युक्ते समानानां धर्मः इति. इत्युक्ते तत्र काठिन्यं शिथिलता इति प्रायः धर्मः न तु गुणः इति मम चिन्तनम्.
अस्तु भगिनि, केवलं चिन्तयन्
अस्ति, सम्यक् महोदय. तादृश किञ्चित् चर्चा भवति चेत् अस्माकं कृते अस्माकम् अवगमनमपि किञ्चित् इतोपि सम्यक् भवति खलु. हा, भवान् एव अग्रे पठतु.
अयं घटनाशः अस्माभिः न दृश्यते, अस्माकं पुरतः घटः तु तदानीमपि अस्ति, किन्तु सूक्ष्मस्तरे स च घटः नष्टः, स एव घटः तदानीमपि अस्ति इति अस्माकं भ्रान्तिः इति वैशेषिकः अभिप्रायः. यथा ग्रीष्मकाले आयसस्य आकृतिः विकसति वर्धते, यदा अधिकाधिकतपः आपतति तदा विद्वयतन्तुः दीर्घो भवति, शैत्यकाले स च विद्वयतन्तुः किञ्चित् लघ्वी भवति. एतादृशपरिवर्तनात् विद्वयतन्तुः नितरां भिन्नः इति विद्युत्तन्तुः नितरां भिन्नः इति तेषां मतम्. एवं रीत्या यदा घटस्य तेजसंयोगः भवति तदा पूर्वतन अवयवसंयोगाः नश्यन्ति, अपक्वघटस्य शिथिलाः अवयवसंयोगाः तेयसंयोगानन्तरम् अवयवसंयोगाः निबिडाः, तदा घटे कठिनत्वम् अनुभूयते, तस्य कारणञ्च इदं यत् पूर्वतन अवयवसंयोगाः नष्टाः, नूतनतया निबिडसंयोगाः व्युत्पन्नाः. पूर्वं क्रमेण यथा घटस्य नाशः भवति पुनः नूतनघटः आगच्छति इति पठितं, यद्घटनाशः अस्माभिः एषः घटनाशः अस्माभिः न दृश्यते, पुरतः घटः अस्ति इति एव भाति, किन्तु सूक्ष्मस्तरे घटः नष्टः अभवत्, यतोहि तत्र द्वयणुकसंयोगः नष्टः, अनन्तरं क्रमेण पूर्वं दृष्टं सूक्ष्मस्तरे घटः नष्टः, तदेव घटः तदानीमपि अस्ति इति अस्माकं भ्रान्तिः, अस्माकं किम् असम्यक् अवगमनम् इति चिन्तयामः, घटः इदानीं तदेव घटः इदानीमपि अस्ति इति भ्रान्तिः इति वैशेषिकानां मतः. यथा उदाहरणं दीयते, ग्रीष्मकाले आयः इत्युक्ते अयन् इति, तस्य परिमाणं यत् अस्ति तत्र वर्धनं भवति ग्रीष्मकाले. यथा अधिकाधिकतापः पतति तदा विद्युत् तन्तुः दीर्घो भवति, तथापि विपरेण शैत्यकाले ते किञ्चित् न्यूनं, तेषां परिमाणं न्यूनं भवति. एतादृशपरिवर्तनात् पूर्वतन ये विद्युत् तन्तुः आसीत्, नूतनविद्वत् तन्तुः यत् अस्ति ते नितरां भिन्नः इति ते वैशेषिकानां मतम्. एवं यद्यपि तापसंयोगेन तपसंयोगेन तेषां परिमाणस्य परिवर्तनं भवति शैत्यकाले दीर्घकाले, तथापि तन्तवः नितरां भिन्नः इति वैशेषिकानां मतम्. एवं रीत्या यथा घटस्य तेजसंयोगः भवति तदा पूर्वतन अवयवसंयोगाः नश्यन्ति इति दृष्टं. तेजसंयोगेन द्वयोणुकनाशः, परमाणुसंयोगनाशः, द्वयोणुकनाशः, त्रयोणुकनाशः इति पूर्व अवयोगाः अवयवसंयोगाः नश्यन्ति. अपक्वघटस्य अपक्वघटे अवयवसंयो परमाणुद्वयोः संयोगः यत् आसीत् तत् शिथिलः आसीत्. तेजस्य संयोगानन्तरं संयोगः निबिडः इत्युक्ते तत्र बलम् अस्ति, तत् दृढम् अस्ति, काठिन्यम् अस्ति. तदा घटे यतोहि संयोगे सूक्ष्मस्तरे अवयवसंयोगे काठिन्यम् आसीत् तदा पूर्वतन सम्पूर्णघटे कठिनत्वम् अनुभूयते. तस्य कारणं किम् इति चेत् पूर्वतन अवयवसंयोगः नष्टः, नूतनसंयोगः निबिडः संयोगः इति, तदेव घटे परमाणुषु नूतनसंयोगः निबिडसंयोगः उत्पन्नः, तदर्थं सम्पूर्णघटे इदानीं काठिन्यम् इति अनुभूयते. पूर्वं शैथिल्यम् आसीत्, इदानीं काठिन्यम् अस्ति.
सम्यक्. तर्हि यथा घटस्य विषये दृष्टवन्तः तद्वदेव अत्रापि. तर्हि इत्युक्ते तत्र यदा तत्र तादृश संयोगस्य परिवर्तनं भवति तर्हि तत्र वस्तुतः द्रव्यस्य एव परिवर्तनं भवति, तत्र नूतनद्रव्यस्य उत्पादनं भवति तत्र इति तेषां मतं तावदेव.
अभिज भगिनि, एषः तेजसंयोगादिः नूतन काठिन्यं यद् अस्ति तत् कालक्रमेण एव आगच्छति, एकस्मिन् क्षणे न भवति. यथा मृदु घटं ते अहं जानामि एकः करोति, एकघण्टा यावत् अग्निसमीपम् आवश्यकम्.
सत्यं, तत्र मम अवगमनं किञ्चित् तत्र मम अवगमनम् एवम् अस्ति यत् तत्र प्रतिक्षणं यथा तत्र तेजसंयोगः भवति तत्र इत्युक्ते एकघण्टस्य पूर्वं तत्र मृदुः आसीत्, तदनन्तरं तत्र काठिन्यं जायते, परन्तु तत्र एकस्मिन् क्षणे एव तत् परिवर्तनं जातम् इति न खलु, तर्हि तत्र क्रमेण परिवर्तनं भवति, तर्हि क्रमेण एव संयोगस्य अपि परिवर्तनम् इति चिन्तयामि. तर्हि प्रतिक्षणं तत्र नूतनघटस्य निर्माणम् अपि च नाशः इति क्रमेण गत्वा अन्ततो गत्वा तत्र काठिन्यघटः जायते इति अस्ति इति अहं चिन्तयामि.
तथैव विद्युत् तन्तु एव एकनिमिषे न दीर्घः भवति, समयः आवश्यकः.
सत्यं, तर्हि प्रतिक्षणं तत्र नूतनविद्युत् गन्तः भवति. सत्यम् अस्तु. तर्हि अग्रे सुनील् महोदय, भवान् पठति वा तत्र मूलपर्पट?
मूलपर्पटनिर्माणसमये पर्पटः बृहान् अस्ति. आतपे पर्पटः बहिः स्थाप्यते दिनपञ्चकं यावत्, अनन्तरम् आपणं प्रति पर्पटः आनीयते. दिनपञ्चकानन्तरं तेजसंयोगवशात् आदिमदिने यः आकारः आसीत् स च आकारः अन्तिमदिने तदपेक्षया नितरां भिन्नः. आदिमदिने जलसंयोगात् बृहान् आसीत् तेजसंयोगानन्तरम् अन्तिमे दिने यदा आपणं प्रति प्रेष्यते तदा पर्पटः लघुः जातः. तेजसंयोगात् आकृतेः वैपरीत्यं दृश्यते. अनेन पुरातनः अवयवी नष्टः नूतन अवयवी व्युत्पन्नः इति वैशेषिकाणाम् आशयः. परमाणवः ते एव किन्तु नूतनसंयोगेन द्वयणुकात् आरभ्य सर्वे अवयवाः भिन्नाः. एवं कृत्वा पूर्वतनपर्पटः अन्यः इदानीन्तनपर्पटः अन्यः. अत्र अन्येकम् उदाहरणम् अस्ति, पुनः अहम् एकैकवाक्यं पठित्वा वदामि. मूलपर्पटनिर्माणसमये पर्पटः बृहान् अस्ति. अत्र पर्पटनिर्माणस्य उदाहरणम् अस्ति. अत्र प्रथमं तस्य आकारः बृहान् अस्ति इति. आतपे पर्पटः बहिः स्थाप्यते दिनपञ्चकं यावत्, अनन्तरम् आपणं प्रति पर्पटः आनीयते. अत्र निर्माणानन्तरम् अत्र उष्णे स्थापयित्वा दिनपञ्चकं यावत् स्थापयित्वा आपणं प्रति पर्पटम् आनयामः. दिनपञ्चकानन्तरं तेजसंयोगवशात् आदिमदिने यः आकारः आसीत् स च आकारः अन्तिमदिने तदपेक्षया नितरां भिन्नः. अतः दिनानन्तरं तेजसंयोगः अभवत् इति कारणेन तत्र आकारस्य परिवर्तनं भवति. आदिमदिने किं कः यः आकारः आसीत् इदानीं तत्र आकारस्य भिन्नत्वं भवति. आदिमदिने जलसंयोगात् बृहान् आसीत् तेजसंयोगानन्तरम् अन्तिमे दिने यदा आपणं प्रति प्रेष्यते तदा पर्पटः लघुः जातः. प्रथमदिने अत्र जलसंयोग संयोगः आसीत् इति कारणेन आकारः बृहान् आसीत्, परन्तु तेजसंयोगानन्तरं अत्र लघुः आकारः लघुः जातः. तेजसंयोगात् आकृतेः वैपरीत्यं दृश्यते. अतः अत्र तेजसंयोगकारणेन अत्र बृहत्तः लघुपर्यन्तम् आकृतिः गच्छति. अनेन पुरातनः अवयवी नष्टः नूतन अवयवी व्युत्पन्नः इति वैशेषिकाणाम् आशयः. अतः अत्र रूपपरिवर्तनम् आकारपरिवर्तनं अभवत् इति कारणेन पुरातन अवयवी नष्टः नूतन अवयवी आगता इति वैशेषिकाणाम् आशयः अस्ति. परमाणवः ते एव किन्तु नूतनसंयोगेन द्वयणुकात् आरभ्य सर्वे अवयवाः भिन्नाः. तत्र ये परमाणवः आसन् तत्र नूतनसंयोगेन अत्र द्वयणुकात् आरभ्य पुनः अत्र अवयवाः सन्ति इदानीं ते भिन्नाः इति. एवं कृत्वा पूर्वतनपर्पटः अन्यः इदानीन्तनपर्पटः अन्यः इति. अत्र पूर्वं भिन्नाकारः आसीत् इदानीं नूतनाकारः अस्ति इति कारणेन अत्र इदानीं नूतनपर्पटः इति.
इत्युक्ते तत्र आकारेण वयं ज्ञातुं शक्नुमः, परन्तु आकारः अस्ति इति कृत्वा तत्र नूतनः इति नास्ति, परन्तु तत्र प्रक्रिया तथा अस्ति येन तत्र यत् पर्पटः आरम्भे आसीत् तद् नास्ति इदानीं तत्र पाक संयोगस्य अनन्तरं. क्षम्यतां, तेजसंयोगस्य अनन्तरं. अस्तु, तर्हि शुकोन महोदय भवान् पठति वा.
प्रकृतौ यथा पाषाण अवयवसंयोगेषु नैविध्यं वर्तते तथैव घटे तेजसंयोगानन्तरं घटावयवसंयोगेषु नैबिड्यम् अस्ति. तत्र च घटस्य असमवायीकारणं कपालसंयोगः शतसंयोगः पूर्वम् अन्यविधः आसीत् अधुना अन्यविधः जातः. अपि च असमवायीकारणनाशात् द्रव्यनाशः इति तु भवत्येव. एवमेव परमाणुद्वयसंयोगरूप असमवायीकारणनाशात् द्वयणुकनाशः इति अस्ति. इति रीत्या घटस्तरे अवयवसंयोगाः सर्वे नष्टाः नूतनाः नूतनाः अवयवसंयोगाः उत्पन्नाः इति चेत् वैशेषिकाः घटनाशम् अङ्गीकुर्वन्ति. घटः नष्टः चेत् तस्मिन् विद्यमानं रूपं तु नष्टमेव, किन्तु घटगतरूपनाशस्य अत्र कारणं समवायिकारणनाशः, न तु समानाधिकरणगुणः तेजः संयोगः. वैशेषिकमते यस्मिन् काले तेजसंयोगेन घटे रूपान्तरं भवति, तद्रूपान्तरं केवलं रूपान्तरं न घटान्तरमपि अस्ति. तस्मिन् घटे गन्धः अन्यः, स्पर्शः अन्यः, रूपमपि अन्यत्, सर्वं परिवर्तितं. पूर्वं शिथिलसंयोगः, अधुना निबिडसंयोगः. पूर्वं मृदुत्वम्, अधुना कठिनत्वम्. अतः पूर्वतनघटः नास्ति, नूतनघटः निष्पन्नः. पङ्क्तिशः वदामि. प्रकृतौ यथा पाषाण अवयवसंयोगेषु नैबिड्यं वर्तते, तत्रैव घटे तेजसंयोगान्तरं अवयवेषु नैबिड्यम् अस्ति. प्रकृतौ इत्युक्ते इदानीं घटविषये, प्रकृतौ इत्युक्ते प्रकृति यदा लोके वयं पश्यामः तत्र पाषाण अवयवेषु नैबिड्यं वर्तते. पाषाणखण्डं स्वीकुर्मश्चेत् तत्र काठिन्यम् अस्माभिः दृष्टः. तथैव घटे तेजसंयोग अनन्तरं, पूर्वं घटे मृदुत्वम् आसीत्, तेजसंयोग अनन्तरं घट अवयवे संयोगेषु घट अवयवसंयोगेषु नैबिड्यम् अस्ति इति. तत्र संयोगे वैशिष्ट्यं स्वीकुर्वन्ति. मृदुसंयोगः इति पूर्वम् आसीत्, इदानीं निबिडसंयोगः तस्मिन् जातम् इति वैशेषिकाः वदन्ति. वैशेषिकाः इत्युक्ते पीलुपाकवादिनः वदन्ति. तत्र च घटस्य असमवायिकारणं कपालसंयोगः, सचसंयोगः पूर्वम् अन्यविधः आसीत् अधुना अन्यविधः जातः. घटस्य असमवायिकारणं कपालसंयोगः इति वयं जानीमः एव. किमर्थम् इत्युक्ते समवायेन स्थित्वा समवायेन यत् कार्यं जनयति तत् असमवायिकारणम् इति. संयोगः कार्यादिकारणे कपाले संयोगेन स्थित्वा समवायेन स्थित्वा समवायेन घटं जनयति इति वयं जानीमः. अतः घटस्य असमवायीकारणं कपालसंयोगः. किन्तु कपालसंयोगः पूर्वं कीदृशम् आसीत् इत्युक्ते तत्र मृदुता, संयोगे मृदुता आसीत्, इदानीम् अन्यविधः इत्युक्ते कठिनता आगतम् इति अत्र दत्तमस्ति. अपि च असमवायीकारणनाशात् द्रव्यनाशः इति भवत्येव, तदपि वयं जानीमः. कपाले यत् संयोगः वर्तते तस्य नाशः भवति चेत् घटस्य नाशः निश्चयेन भवति इति कृत्वा असमवायीकारणनाशात् कपालसंयोगनाशात् द्रव्यनाशः, घटनाशः इति भवत्येव. एवमेव परमाणुद्वयसंयोगरूप असमवायीकारणनाशात्, वयं जानीमः परमाणुद्वये संयोगः भवति चेत् एव अनेन द्वयणुकः भवति. पुनः द्वयणुक संयोगेन त्रयणुकः भवति. एवमेव घटं घटपर्यन्तं द्रव्यस्य निर्माणं भवति इति. परमाणुद्वयसंयोगरूप असमवायीकारणनाशात् द्वयणुकनाशः भवति इति वयं जानीमः. इति रीत्या घटस्तरे अवयवसंयोगाः सर्वे नष्टाः. आम्, यदा द्वयणुक नाशः भवति युगपत् अवयवीनाम् अनेन अवयवेन यत् अवयवी उत्पन्नम् अभवत् तस्यां तस्य नाशः तेषां नाशः अपि भवति इति कृत्वा अवयवसंयोगाः घटस्तरे अवयवसंयोगः सर्वे नष्टाः इत्युक्ते द्वयणुकसंयोगः त्रयणुकसंयोगः इति सर्वे कपालसंयोगपर्यन्तं सर्वे नष्टाः. पुनः नूतन अवयवसंयोगाः उत्पन्नाः तेजसंयोगेन पुनः काठिन्य संयोगः उत्पन्नाः इति वयं दृष्टवन्तः. इति चेत् वैशेषिकाः घटनाशम् अङ्गीकुर्वन्ति इति चेत् इति किमर्थम् इति इत्येव तेषां मतम् इति मम अवगमनम्. इति चेत् इति किमर्थं तत्र अवयवसंयोगः उत्पन्नाः इति वैशेषिकाः घटनाशम् अङ्गीकुर्वन्ति एतादृशमेव ते घटनाशम् अङ्गीकुर्वन्ति. घटं तु अवयवी कपालः कपालात् आरभ्य द्वयणुकपर्यन्तम् अवयवाः द्वयणुकं यदा नश्यति तदा घटः अपि नश्यति. द्वयणुकं किमर्थं नश्यति चेत् परमाणुषु यत् संयोगः आसीत् तस्य नाशेन द्वयणुकस्य नाशः अनेन घटपर्यन्तं नाशः इति वैशेषिकाः घटनाशस्य प्रक्रियां वदन्ति अपि च घटनाशम् अङ्गीकुर्वन्ति. ते घटः नष्टः चेत् तस्मिन् विद्यमानं रूपं तु नष्टमेव, तद् वयं जानीमः. द्रव्यमेव नश्यति चेत् आधारः नष्टः चेत् आश्रितः अपि नष्टं भवति इति. किन्तु घटगतरूपनाशस्य अत्र कारणं समवायीकारणनाशः न तु समानादिकरणगुणनाश गुणः तेजसंयोगः इति अत्र भेदः वर्तते. वैशेषिकमतानुसारं घटनाशं यद्यपि ते अङ्गीकुर्वन्ति किन्तु घटनाशः केन कारणेन जायते इत्युक्ते समवायीकारणनाशेन एव जायते, न तु समानादिकरणगुणजन्येन तस्य नाशः भवति इति तेषां मतं. वैशेषिकमते यस्मिन् काले तेजसंयोगेन घटे रूपान्तरं भवति तद्रूपान्तरं केवलं रूपान्तरं न घटान्तरमपि अस्ति. नूतनघटमपि तत्र निर्माणं भवति, न तु केवलं तेषां रूपं तस्य रूपम् इति. तस्मिन् घटे गन्धः अन्यः. इदानीमपि यत् यस्य घटस्य परिवर्तनम् अस्माभिः दृष्टं तस्मिन् गन्धः वर्तते, स्पर्शः वर्तते, रूपमपि वर्तते, किन्तु तत् केवलं परिवर्तनम् इति न, किन्तु तत्र नूतनगन्धः उत्पन्नः, स्पर्शः उत्पन्नः, रूपमपि नूतनरूपमेव. सर्वं परिवर्तितम् इत्युक्ते परिवर्तितम् इति साक्षात् न स्वीकर्तुं शक्यते, किन्तु नूतन पूर्वं यद् गन्धः स्पर्शः रूपम् आसीत् तत्सर्वं नष्टः, अपि च नूतनगन्धः स्पर्शः रूपं जातम् इति परिवर्तनम् इति पदस्य अवगमनं भवेत्. पूर्वं शिथिलसंयोगः आसीत् अनेन घटे अपि मृदुता आसीत्, अधुना निबिडसंयोगः जातः. कुत्र? परमाणौ निबिडसंयोगः जातः, अनेन घटे अपि कठिनत्वम् अस्माभिः अनुभूयते. अतः पूर्वतनघटः एव नास्ति, नूतनघटः निष्पन्नः इति वैशेषिकानां मतम्।
बहु सम्यक् महोदय। तर्हि एतावत्पर्यन्तं सर्वं स्पष्टं स्यात्। किञ्चित् चिन्तनं कुर्वन्तु, प्रश्नः अस्ति चेत् आगामिकक्षायां किञ्चित् तस्मिन् विषये चिन्तनं कृत्वा अग्रे गन्तुं शक्नुमः। अद्य तु समयः जातः, तर्हि शुभरात्रिः। धन्यवादः।
धन्यवादः।
धन्यवादः।